कोटकीर्णस् स्वरसनिचितक् ज्ञान सर्वस्वभाजः सम्यक् दृष्टेर् यदिह सकलं घ्नन्ति लक्ष्माणि कर्म तत्तस्यास्मिन् पुनरपि मनाक् कर्मणो नास्ति।